एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सुदूर पश्चिम प्रदेशस्य आन्तर विषय विधि मन्त्री पृथ्वीबहादुर सिम्मा ह्यो बझाङ जनपदे दुरापन्नायाम् जीपयान दुर्घटनायाम् दिवंगतो वर्तते। धनगढ़ी स्थानात बजांग जनपदाय प्रस्थीयमानम जीपयानम केदार स्यू ग्रामपालिकायम दुर्घटितम सद गभीरेण आहतस्य विधि मन्त्रिणः सिंहस्य कोहलपुरवर्तिनी नेपालगंज चिकित्सा शिक्षणालय उपचारस्य क्रमे निधनम अभवत्। कोहलपुरस्थितेन नेपालगंज चिकित्सा शिक्षणालयेन गत सायं विज्ञप्तिम प्रकाश्य त्रयस्त्रिंशत् कलोत्तर पञ्चवादने मन्त्री सिंह दिवंगत इति ज्ञापितम् वर्तते। 65 वर्षीय सिंह बझाङ जनपदस्य प्रदेशसभायाः क क्षेत्रात् निर्वाचितः आसीत्। दुर्घटनायाम् आहते मन्त्रिणः सिंहस्य पत्नी अमृतादेवी सिंह भातृजाया जयादेवी सिंहश्च उपचाराय नयनस्य क्रमे मार्गे एव अम्रियताम्। मन्त्रिणा सिम्मेन सह उपचाराय बझाङ जनपदात् हेलिकप्टर यानेन कोलपुरस्थितम् नेपालगंज चिकित्सा शिक्षणालयम् आनीतयोः चालकस्य धर्मराज जोशिनः संरक्षकस्य दीपक भण्डारिणश्च उपचारः जायमानो वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः यान दुर्घटनायां भूतं सुदूर पश्चिम प्रदेशस्य आन्तर विषय विधि मन्त्रिणा सहितानां जनानां निधनं प्रति दुःखं व्यनक्ति। प्रधानमन्त्री प्रचण्डः सामाजिक सञ्जालस्य माध्यमेन सुदूर पश्चिम प्रदेशस्य आन्तर विषय विधि मन्त्रिणः पृथ्वीबहादुर सिंहस्य तदीय पत्न्याः अमृतादेवी सिंहस्य भातृजायाः जयादेवी सिंहस्य च यान दुर्घटनायां भूतं निधनम् आदृत्य श्रद्धाञ्जलिं व्यनक्ति। प्रधानमन्त्री प्रचण्डः आहतानां जनानां स्वास्थ्यलाभं च कामयति। सर्वकारेण धुर्मस सुन्तली फाउण्डेशन प्रतिष्ठानेन सिन्धुपाल्चोक जनपदस्य गिरानचोक स्थाने निर्मितायाः एकीकृत निदर्शन वसतेः अधिकारस्य हस्तान्तरणस्य क्रमे सर्वकाराय अर्पणीयस्य करस्य कृते सौविध्यम् प्रदातुम् निर्णीतमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन पुनर्निर्माण पर्यटन प्रवर्धन परियोजनायाः स्वामित्वे विद्यमानयोः गृहभूम्योः हस्तान्तरणस्य क्रमे सर्वकाराय अर्पणीये करे सौविध्यम् प्रदातुम् निर्णीतमिति उपवेशस्य पश्चात् सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत। उपवेशेन नेपाल चीन देशयोः सीमा क्षेत्रस्य तातोपानी झ्याङ्वस्थाने विलुप्तस्य सीमस्तम्भस्य यथास्थानम् पुनस्थापनाय च निर्णीतमिति संचार मन्त्री शर्मा अज्ञापयत। उपवेशे सम्प्रत्येव देशस्य पूर्वभागस्थेषु विभिन्न जनपदेषु दुरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन प्राप्ताया क्षतेः उद्धारसय योगश्च विषयेऽपि विमृष्टमिति मन्त्री शर्मा असूचयत। अत्र सम्बन्धे संचारकर्मिणां जिज्ञासायां मन्त्री शर्मा उद्धारस्य कार्यं प्राथमिकतायां संस्थाप्य विधातुम् अन्तर्गतस्य निकायेभ्यः निर्देशनं प्रदत्तम् अस्ति। तत्पश्चात् सहयोग पुनस्थापनयोः कार्याणि अपि नियमस्य विदेशानुसारेण जायमानानि भविष्यन्ति इति च समस्पष्टयत। एवमेव आयव्यय विवरणस्य सन्दर्भे सत्तारूढ दलेषु विद्यमानायाः असन्तुष्टेर्विषये किमपि विमृष्टम् व्यति संचारकर्मिणां जिज्ञासायां मन्त्री शर्मा उपवेशे किमपि न विमृष्टमिति सूचयन्ति। परं सत्ता सहकारी दलानाम् उपवेशस्य माध्यमेन समस्यानां समाधानम् अन्वेष्यते इति स्पष्टीकृतवती। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते नवीनं चिन्तनं सामाजिक रूपान्तरणाय परिहार्यं वर्तते। संघीय विषय सामान्य प्रशासन मन्त्रालयेन ह्य आयोजितं प्रतिभा प्रदर्शन कार्यक्रमं सम्बोधयन् प्रधानमन्त्री प्रचण्ड प्रतिफलं स्वस्य विचार चिन्तन शैलीनां सर्जनात्मक पद्धत्या विकासाय क्रियाशीलस्य व्यक्तित्वस्य आत्मना सदैव उच्चैर् मूल्यांकनं विहितमस्तीति अवदत्। प्रधानमन्त्री प्रचण्ड वर्तमान सर्वकारेण सुशासनाय बलं दत्तमस्तीति भाषमाणः नेपाले क्षमता प्रतिभानुभवानां सर्वैः दृष्टिकोणैः सक्षमं कर्मचारीतन्त्रमस्तीति विश्वासम् अभिव्यनक। प्रतिनिधि सभायां प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह प्रश्नोत्तर कार्यक्रमः परश्वः आषाढस्य अष्टमे दिवसे शुक्रवासरे भविता। प्रतिनिधि सभायाः गतदिवसीयोपवेशे सभामुख देवराज घिमिरे प्रश्नोत्तरस्य कार्यक्रमं परश्व भवितेति असूचयत। सभामुख घिमिरे प्रश्नान् प्रष्टुम् सप्तदश समूहः विभाजिताः समूहे पञ्चदश सांसदाः सदस्याः सन्तीति ज्ञापितवान्। प्रतिनिधि सभाया गत दिवसीय उपवेशे एतद् भयक्रमादस्य विनियोजन विधेयकस्य अन्तर्गतानां नगरीय विकास पेयजलार्थ श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयानां विभिन्नानि शीर्षकाणि आदृत्य विमर्शनमभवत्। विमर्शने सहभागिनः सांसदाः आयव्ययकस्य क्रियान्वयनाय विश्वासस्य वातावरणं निर्माय अनुकूलरूपेण अग्रे वर्धितुं बलं प्रादुः। सांसदाः अवोचन् विदेश पलायनरतानां यूनां निरोधनत्वेन दीर्घकालिक चिन्तनेन श्रम मन्त्रालयेन अग्रे वर्धितव्यम्। सांसदैः आयव्ययकेन निर्धारितस्य उद्देश्यस्य अनुसारेण अग्रे वर्धिते सति देशो विकासस्य मार्गे अग्रेसरो भविष्यति इति तर्कयद्भिः एतस्य क्रियान्वयनाय बलं प्रदत्तम्। सांसदाः नगरीय पूर्वाधाराणां निर्माणाय आवंटितम् आगामिनः आर्थिकवर्षस्य आयव्ययकं पर्याप्तं नास्ति इति चर्चयन्तः विगतकालस्य महत्वपूर्ण कार्यक्रमेष्वपि व्ययो न्यूनीकृतः इति टिप्पणीम् अकुर्वन्। सांसदाः स्वच्छ पेयजल प्रदानस्य विषये राज्यस्य प्रभावकारिणी योजना न निर्मिता पेयजलस्य आयोजना सबला सुरक्षिताश्च न भूताः इत्यतः पेयजलस्य आयोजनासु नागरिकाणाम् आत्मीयत्व ग्रहणस्य विषये ध्यानं देयमिति उक्तवन्तः। सांसदः गोकुल बास्कोटा प्रेम सुबाल ठाकुर प्रसाद गैरे सूर्यबहादुर थापा क्षेत्री स्वर्णिम वाग्ले प्रभु शाह जुली कुमारी महतो च व्यय न्यूनीकरणस्य प्रस्तावं प्रस्तुवन्। प्रतिनिधि सभाया गत दिवसीय द्वितीयोपवेशे सभामुख देवराज घिमिरे आयव्यय विवरण पुस्तिकायां विद्यमान त्रुटि संशोधयितुं सर्वकारं निरदिशत। उपवेशे सभामुख घिमिरे आयव्यय विवरण पुस्तिकायां त्रुटय प्राप्ता कतिचित् प्रदेशानां नामानि उल्लेखनीयानि आसन् परम् अंका दृष्टा इति हेतो तत् संशोधयितुं निरदिशत। गत दिवसीयोपवेशे विमर्शनाय निर्धारितस्य नगरीय विकास मन्त्रालयस्य विभिन्नेषु शीर्षकेषु लुम्बिनी प्रदेश उल्लेखनीयः सन्नपि पञ्चम प्रदेश इत्युल्लिखितम् इति उक्त्वा कश्चित् सांसदैः विरोधो ज्ञापित तदनु प्रतिनिधिसभायाः प्रथमोपवेश पञ्चदश कलावधेः कृते स्थगितकृतः आसीत्। सांसदानां विरोध ज्ञापनमनु सर्वकारस्य पक्षत उत्तरयन्ती नगरीय विकास मन्त्री सीता गुरूङ प्रदेशस्य नामनि नोल्लिखिते सति त्रुटौ च सत्यां संशोधनं भविष्यतीति प्रतिबद्धतां ज्ञापितवती। इति समाचाराः।